प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजं भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे
शम्भो शङ्कर शम्भो शङ्कर शम्भो शङ्कर शम्भो शङ्कर
गले कालकालं गणेशाधिपालं जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे
शम्भो शङ्कर शम्भो शङ्कर शम्भो शङ्कर शम्भो शङ्कर
मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं तम् अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शम्भुमीशानमीडे
शम्भो शङ्कर शम्भो शङ्कर शम्भो शङ्कर
वटाधो निवासं महाटाटहासं महापापनाशं सदा सुप्रकाशं गिरीशं गणेशं सुरेशं महेशं शिवं शङ्करं शम्भुमीशानमीडे
शम्भो शङ्कर शम्भो शङ्कर शम्भो शङ्कर
गिरीन्द्रात्मजा सङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदा सानगेहं परब्रह्मब्रह्मादिभिर्वन्द्यमानं शिवं शङ्करं शम्भुमीशानमीडे
शम्भो शङ्कर शम्भो शङ्कर शम्भो शङ्कर
कपालं त्रिशूलं कराभ्यां दधानं पदां भोजनं राय कामं ददानं बलिवर्दयानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमीडे
शम्भो शङ्कर शम्भो शङ्कर शम्भो शङ्कर
शरच्चन्द्रगात्रं गुणानन्दपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् अपर्णाकलत्रं सदा सच्चरित्रं शिवं शङ्करं शम्भुमीशानमीडे
शम्भो शङ्कर शम्भो शङ्कर शम्भो शङ्कर
हरं सर्पहारं चिताभूमिहारं भवं वेदसारं सदा निर्विकारं श्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे
शम्भो शङ्कर शम्भो शङ्कर शम्भो शङ्कर
स्तवं यः प्रभाते नरः शूलपाणिः पठेत् सर्वदा भर्गभावानुरक्ता स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रं समासाद्य मोक्षं प्रयाति
शम्भो शङ्करा शम्भो शङ्करा शम्भो शङ्करा शम्भो शङ्करा
तवं यः प्रभाते नरशूलपाणि पठेत् स्तोत्ररत्नं त्विह प्राप्य रत्नं सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैः समाराध्य मोक्षं प्रयाति